ओम नमो भगवते वासुदेवाय। अथैकोनत्रिंशोऽध्यायः। श्रीशुक उवाच, भगवानपि तारात्री शरदोत्फुल्लमल्लिकाः वीक्षरन्तुम् मनश्चक्रे योगमायामुपाश्रितः। तदोडुराजः ककुपः करैर्मुखम् प्राच्या विलिम्पन्नरुणेन शन्तमैः। सचर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः। दृष्ट्वा कुमुद्वन्तमखण्डमण्डलम् रमाननाभम् नवकुङ्कुमारुणम् वनम् च तत्कोमलगोभिरञ्जितम् जगौकलम् वामदृशाम् मनोहरम् निशम्य गीतम् तदनङ्गवर्धनम् व्रजस्त्रियः कृष्णगृहीतमानसाः। आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः। दुहन्त्योभिययुः काश्चिद्दोहम् हित्वा समुत्सुकाः। पयोधिश्रित्य संयाव मनुद्वास्यापराययुः परिवेशयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः। शुश्रूषन्त्यः पतीन् काश्चिदस्नन्त्योपास्य भोजनम्। विलिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने। व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकम् ययुः। तावार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः गोविन्दापहृतात्मानो नन्यवर्तन्त मोहिताः। अन्तर्गृहगताः काश्चिद् गोप्यो लब्ध विनिर्गमाः। कृष्णम् तद्भावना युक्ता दध्युर्मीलितलोचनाः। दुःसह प्रेष्ठ विरह तीव्रता पधुताशुभाः। ध्यानप्राप्ताच्युताश्लेष निर्वृत्त्या क्षीणमङ्गलाः। तमेव परमात्मानम् जालबुद्ध्यापि सङ्गताः। जहुर्गुणमयम् देहम् सद्यः प्रक्षीणबन्धनाः। राजोवाच, कृष्णम् विदुः परम् कान्तम् न तु ब्रह्मतया मुने। गुणप्रवाहो परमस्तासाम् गुणधियाम् कथम्? श्रीशुक उवाच, उक्तम् पुरस्तादेतत्ते चैद्यः सिद्धिम् यथा गतः। द्विषन्नपि ऋषिकेशम् किमुताधोक्षजप्रियाः। नृणाम् निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप। अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः। कामम् क्रोधम् भयम् स्नेहमैक्यम् सौहृदमेव च। नित्यम् हरौ विदधतो यान्ति तन्मयताम् हिते। न चैवम् विस्मयः कार्यो भवता भगवत्यजे। योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते। तादृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः। अवदत् वदताम् श्रेष्ठो वाचः पेशैर्विमोहयन्। श्रीभगवानुवाच, स्वागतम् वो महाभागा प्रियम् किम् करवाणि वः। व्रजस्यानामयम् कच्चिद् ब्रूतागमनकारणम्। रजन्येषा घोररूपा घोरसत्त्वनिषेविता। प्रतियात व्रजम् नेह स्थेयम् स्त्रीभिः सुमध्यमाः। मातरः पितरः पुत्रा भ्रातरः पतयश्च वः। विचिन्वन्ति यपश्यन्तो मा क्रीड्वम् बन्धुसाध्वसम्। दृष्टम् वनम् कुसुमितम् राकेशकररञ्जितम्। यमुनानिलीलैजत्तरुपल्लवशोभितम्। तद्यातमाचिरम् गोष्ठम् शुश्रूसध्वम् पतीन् सतीः। क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत। अथवा मदभिस्नेहात् भवत्यो यन्त्रिताशयाः। आगतायुपपन्नम् वः प्रीयन्ते मयि जन्तवः। भर्तुः शुश्रूषणम् स्त्रीणाम् परो धर्मो ह्यमायया। तद्बन्धूनाम् च कल्याण्यः प्रजानाम् चानुपोषणम्। दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा पतिस्त्रीभिर्नहातव्यो लोकेऽप्सुभिरपातकी। अस्वर्ग्यमयशस्यम् च फल्गुकृच्छ्रम् भयावहम्। जुगुप्सितम् च सर्वत्र औपपत्यम् कुलस्त्रियाः। श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् न तथा सन्निकर्षेण प्रतियात ततो गृहान्। श्रीशुक उवाच, इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम्। विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम्। कृत्वा मुखान्यवशुचः श्वसनेन शुष्यत् बिम्बाधराणि चरणेन भुवम् लिखन्त्यः। अस्रैरुपात्तमशिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्यौरुदुःखभरास्मतूष्णीम्। प्रेष्ठम् प्रियेतरमिव प्रतिभाषमाणम् कृष्णम् तदर्थविनिवर्तित सर्वकामाः। नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगत् गदगिरो ब्रुवतानुरक्ताः गोप्य ऊचुः मैवं विभोर्हति भवान् गदितुम् दृशंसम् संत्यज्य सर्वविषयान्स्तव पादमूलम् भक्ता भजस्व दुरवग्रहमात्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् यत्पत्यपत्य सुहृदामनुवृत्तिरङ्गस्त्रीणाम् स्वधर्म इति धर्मविदात्त्वयोक्तम् अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवान्स्तनुभृताम् किल बन्धुरात्मा कुर्वन्ति हि त्वैरतिम् कुशलास्वात्मन्नित्यप्रिये पतिसुतादिभिरार्चितैः किम् तन्नः प्रसीद परमेश्वरमास्म छिन्द्या आशाम् भृताम् त्वयि चिरादरविन्दनेत्र चित्तम् सुखेन भवतापहृतम् गृहेषु यन्निर्विशत्युतकरावपि गृह्यकृत्ये पादौ पदम् न चलतस्तव पादमूलात् यामः कथम् व्रजमथो करवाम किम् वा सिञ्चाङ्गनस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् नो चेद्वयम् विरह जाग्न्युपयुक्तदेहाध्यानेन यामपदयोः पदवीम् सखेते यर्यम्बुजाक्ष तव पादतलम् रमाया दत्तक्षणम् क्वचिदरण्यजनप्रियस्य अस्प्राक्ष्म तत्प्रभृतिनान्यसमक्षमङ्गस्थातुम् त्वयाभिरमिता बत पारयामः श्रीर्यत्पदाम्बुजरजश्च कमे तुलस्या लब्ध्वापि वक्षसि पदम् किल भृत्यजुष्टम् यस्या स्ववीक्षणकृतेऽन्यसुरप्रयासस्तद्वद्वयम् च तव पादरजः प्रपन्नाः तन्नः प्रसीदवृजिनार्दनतेऽङ्घ्रिमूलम् प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनाम् पुरुषभूषण देहि दास्यम् वीक्ष्यालकावृतमुखम् तव कुण्डलश्रीगण्डस्थलाधरसुधम् हसितावलोकम् दत्ताभयम् च भुजदण्डयुगम् विलोक्य वक्षः श्रियैकरमणम् च भवाम दास्यः कास्त्र्यङ्गते कलपदायतमूर्छितेन सम्मोहितार्यचरितान्न चले त्रिलोक्याम् त्रैलोक्यसौभगमिदम् च निरीक्ष्य रूपम् यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् व्यक्तम् भवान् व्रजभयार्तिहरोऽभिजातो देवो यथादिपुरुषः सुरलोकगोप्ता तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् श्रीशुक उवाच इति विक्लवितम् तासाम् श्रुत्वा योगेश्वरेश्वरः प्रहस्य सदयम् गोपीरात्मा रामोऽप्यरीरमत् ताभिः समेताभिरुदारचेष्टितः प्रिये क्षणोत्फुल्लमुखीभिरच्युतः उदारहासद्विजकुन्ददीधितिर्व्यरोचतैणाङ्क इवोडुभिर्वृतः उपगीयमान उद्गायन् वनिताशतयूथपः मालाम् बिभ्रद्वैजयन्तीम् व्यचरन् मण्डयन् वनम् नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् रेमे तत्तरलानन्द कुमुदामोदवायुना बाहुप्रसार परिरम्भकरालकोरुनीवीस्तनालभन नर्म नखाग्रपातैः क्ष्वेल्यावलोकहसितैर्व्रज सुन्दरीणामुत्तम्भयन् रतिपतिम् रमयाञ्चकार एवम् भगवतः कृष्णाल्लब्धमाना महात्मनः आत्मानम् मे निरे स्त्रीणाम् मानिन्योऽभ्यधिकम् भुवि तासाम् तत्सौभगमदम् वीक्ष्यमानम् च केशवः प्रशमाय प्रसादाय तत्रैवान्तरधीयत ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनम् नामैकोनत्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।